ओम नमो भगवते वासुदेवाय। अथ सप्तदशोऽध्यायः। श्रीशुक उवाच, यः पुरुरवसः पुत्र आयुस्तस्य भवन् सुताः, नौशः क्षत्रवृद्धश्च रजिरम्भश्च वीर्यवान्। अनेन इति राजेन्द्र शृणु क्षत्रवृद्धोऽन्वयम्। क्षत्रवृद्धसुतस्यासन् सुहोत्रस्यात्मजास्त्रयः, काश्यः कुशो गृत्समद इति गृत्समदादभूत्। शुनकः शौनको यस्य बह्वृच प्रवरो मुनिः, काश्यस्य काशिस्तत्पुत्रो राष्ट्रो दीर्घतमः पिता, धन्वन्तरिर्दैर्घतम आयुर्वेदप्रवर्तकः, यज्ञभुक् वासुदेवांशः स्मृतमात्रार्तिनाशनः, तत्पुत्रः केतुमानस्य यज्ञे भीमरथस्ततः, दिवो दासो द्युमांस्तस्मात् प्रतर्दन इति स्मृतः, स एव शत्रुजिद्वत्स ऋतध्वज इति ऋतः, तथा कुवलया श्वेति प्रोक्तो लर्कादयस्ततः, षष्टिवर्षसहस्राणि षष्टिवर्षशतानि च। नालर्कादपरो राजन्मेदिनीम् बभुजे युवा, अलर्कात् सन्ततिस्तस्मात् सुनीथोऽथ सुकेतनः, धर्मकेतुसुतस्तस्मात् सत्यकेतुरजायत, दृष्टकेतुसुतस्तस्मात् सुकुमारक्षितीश्वरः, वीतिहोत्रस्य भर्गोतो भार्गभूमिरभून्नृपः, इति मे काशयो भूपा क्षत्रवृद्धान्वयायिनः, रम्भस्य रभसः पुत्रो गम्भीरस्याक्रियस्ततः, तस्य क्षेत्रे ब्रह्मजज्ञे शृणुवंशमनेन सह, शुद्धस्ततः श्रुतिस्तस्मात्त्रिककुद्धर्मसारथिः, ततः शान्तरयो जज्ञे कृतकृत्यः स आत्मवान्, रजे पञ्चशतान्यासन् पुत्राणाममितौजसाम्, देवैरभ्यर्थितो दैत्यान् हत्वेन्द्राय ददाद्दिवम्, इन्द्रस्तस्मै पुनर्दत्त्वा गृहीत्वा चरणौ रजेः, आत्मानमर्पयामास प्रह्लादाद्यरिशङ्कितः, पितर्युपरते पुत्रा याचमानाय नो ददुः, त्रिविष्टपम् महेन्द्राय यज्ञभागान् समाददुः, गुरुणाहूयमानेऽग्नौ बलभित्तनयान् रजेः, अवधीद्भ्रंशितान् मार्गान् न कश्चिदवशेषितः, कुशात् प्रतिः क्षात्रवृद्धात् सञ्जयस्तत्सुतो जयः, ततः कृतः कृतस्यापि यज्ञे हर्यवनो नृपः, स देवस्ततो हीनो जयसेनस्तु तत्सुतः, संकृतिस्तस्य च जयः क्षत्रधर्मा महारथः, क्षत्रवृद्धान्वया भूपा शृणुवंशम् च नाहुषात्। ओम् स्वस्ति श्रीमद्भागवते महापुराणे पारमहंस्याम् संहितायाम् नवमस्कन्धे चन्द्रवंशानुवर्णने सप्तदशोऽध्यायः। श्रीकृष्णार्पणमस्तु। नमोऽस्तु ते महायोगिन् प्रपन्नमनुषाधिमाम्, यथा त्वच्चरणाम्भोजे रतिः स्यादनपायिनी।